सर्वेषां स्वागतं. प्रार्थनया आरम्भं कुर्मः. कः अथवा का वक्तुमिच्छति?
अहं वदामि भवति.
आम् आम् भगिनि.
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये. सरस्वती नमस्तुभ्यं वरदे कामरूपिणी. विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा. गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुर्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः. ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ॐ. नमस्कारः भगिनि.
धन्यवादः भगिनि. एतदपि पठितुम् इच्छति वा?
आम् भगिनि. गीतं वा तत्?
न न किमपि
पठनीयमेव. कृष्णो रक्षतु नः जगत्त्रयगुरुः कृष्णं नमस्याम्यहं. कृष्णेन अमरशत्रवो विनिहताः. कृष्णाय तुभ्यं नमः. कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोऽस्म्यहम्. कृष्णे तिष्ठति सर्वमेतदखिलं हे कृष्ण रक्षस्व मां. कृष्णः रक्षतु. अस्तु
वदतु. कृष्णः रक्षतु नमस्यामि अहं. कृष्णेन विनिहताः चत्रवः
कृष्णाय अहं नमामि. तुभ्यं नमः. कृष्णादेव सम उत्थितं जगद् इदं कृष्णस्य दासः अस्मि अहं. कृष्णे तिष्ठति सर्वम् एतत् अखिलं हे कृष्ण रक्षस्व मां.
धन्यवादः. अत्र सुभाषितम् अहं न स्थापितवती, परन्तु अग्रे अन्य सुभाषितम् आगच्छति. प्रथमं कथां पठामः. जयश्री भगिनी पठति वा प्रथमं? बहु सुलभा कथा
भगिनि.
बहु सुलभा कथा.
आं भगिनि. धर्मदृष्टिः. श्रीरामचन्द्रस्य रावणस्य च युद्धं जातम्. रावणः भयङ्करं युद्धं कृतवान्. तदा श्रीरामः ब्रह्मास्त्रं प्रयुक्तवान्. ब्रह्मास्त्रेण रावणः मृतः. अनन्तरं विभीषणः अतीवरोदनं कृतवान्. मन्दोदरी अपि रोदनं कृतवती. श्रीरामचन्द्रः रावणे युद्धं कर्तुं युद्धं कृतवान्. तस्य युद्धे रावणः भयङ्करं युद्धं करोतु अपि सः मृतवान्. ब्रह्मास्त्रेण मृतवान्. श्रीरामः ब्रह्मास्त्रम् उपयोगं कृतवान्. अनन्तरं रावणे मृतानन्तरे विभीषणः, रावणस्य सहोदरः विभीषणः, तस्य पत्नी मन्दोदरी च अतीव रोदनं कृतवन्तः.
अस्तु, अवगच्छन्ति वा सर्वे? श्रीरामचन्द्रः रावणेन सह युद्धं कृतवान्. युद्धं सम्यक्तया एव कृतवान् रावणः, परन्तु ब्रह्मास्त्रेण मृतवान्। अस्तु, प्रश्नः नास्ति इति मन्ये।
अत्र रोदनं विभज्य प्रयोगः वा?
आम् आम् आम्, रोदिति रोदनं, रोदनं कृतवान्, रुदितवान् इति, रुदितवान् रोदनं कृतवान्। अस्तु, अग्रे लता भगिनी।
आं भगिनि, श्रीरामः विभीषणम् उक्तवान्, विभीषण रोदनं मास्तु, रावणः वीरस्वर्गं प्राप्तवान् अस्ति, इदानीं शवसंस्कारस्य समयः, तदर्थं सिद्धतां करोतु इति। श्रीरामचन्द्रः विभीषणं प्रति उक्तवान्, विभीषण रोदनं किमर्थं, रोदनं मास्तु, रावणः वीरगति प्राप्तवान्, अतः रोदनं मास्तु, इदानीं भवतः संस्कारस्य रक्षणं कर्तुं समयः, तदर्थं किं करणीयम् इति चिन्तनं करोतु इति उक्तवान्।
सुलभकथा एव खलु। धन्यवादः भगिनि। सागरी भगिनी अग्रे।
भगिनि, भगवन् रावणः पापी, अधार्मिकः, परस्त्रीकामुकः, दुष्टः च, अतः रावणस्य शवसंस्कारं न करोमि, रावणस्य शवसंस्कारम् अपि न करोमि। किं भगिनि,
शवसंस्कारं प्रथमम्, अनन्तरं शवस्य स्पर्शम्।
स्पर्शं, क्षम्यतां, स्पर्शम् अपि न करोमि इति उक्तवान् विभीषणः। विभीषणः रामम् उक्तवान्, रावणः पापः, अधर्मी, परस्त्री इच्छां कृतवान्, दुष्टः च, अतः अहं शवसंस्कारं न करोमि, शवं स्पर्शम् अपि न करोमि। इति रावणम् उक्तवान्।
सो अतः विभीषणः किमपि कर्तुं न इष्टवान् इत्येव कथायाः सारांशः। इदानीम् अग्रे किं भवति इति पश्यामः। सो अत्र कथायाः नाम अस्ति धर्मदृष्टिः। कस्य कस्य श्रीरामस्य चिन्तयामः अग्रे, अग्रे पश्यामः। सन्ध्या भगिनि,
नमो नमः भगिनि।
नमो नमः।
विभीषण मरणान्तानि वैराणि, अर्थात् मरणपर्यन्तमेव वैरं तिष्ठति, मरणान्तरं वैरम् अनुचितं, धर्मविरुद्धं च। इदानीं रावणः मृतः, तस्य सर्वे पुत्राः अपि मृताः, कुम्भकर्णः अपि मृतः, अतः रावणस्य शवसंस्कारः भवता एव करणीयः इति उक्तवान् रामः। रामः उक्तवान् जीवनम् एव अस्ति, जीवनान्तरं वैरं नास्ति इति। यदि मनुष्य मरणं प्राप्नोति तर्हि मरणान्तरं वैरं नास्ति किमपि अतः वैरम् अनुचितं धर्म यदि अहं धर्म पश्यामि तर्हि अहं हौ डु वि से वि विल् सी अहं वयं पश्यामः वैरं उचितं नास्ति इति
धर्मदृष्ट्या वयं पश्यामः
लुकिङ्ग् फार् देट् वर्ड् भगिनि धन्यवादः उचितं नास्ति विरुद्धं वैरं उचितं नास्ति इदानीं रावणः मरणं प्राप्नोति whoever
शवसंस्कारं कर्तुं
केन शवसंस्कारं कर्तुं शक्नुमः सर्वे सर्वे अपि मृताः पुत्राः कुम्भकर्णः च अतः त्वमेव संस्कारं कर्तुं शक्नोति अतः कृपया संस्कारं शवसंस्कारं करोतु इति रामः उक्तवान्
रामः उक्तवान् कुम्भकर्णः न अङ्गीकृतवान् अहं न करोमि एव इति
भगिनि
वदतु भगिनि
पुनः विवृणोतु प्रथम द्वितीय पङ्क्ति that paragraph's first two lines
so this is like a term maranatani vairani is like a term itika marana antani eva vairani itite marana paryaptam paryantam eva vairam tishtati anantaram nasti किमर्थम् इत्युक्ते आत्मा एव तिष्ठति इति अर्थे मरणानन्तरं वैरम् अनुचितम् इति सः वदति किमर्थम् इत्युक्ते धर्मस्य विरुद्धम् अस्ति
वैरम् इत्युक्ते किं भगिनि धन्यवादः
सः इदानीम् ऐ मीन् पूर्वं रावणः अस्माकं शत्रुः इदानीं शत्रुः नास्ति किमर्थमित्युक्ते सः मृतवान् मरणानन्तरं सः शत्रुः नास्ति सः पापी नास्ति अतः धर्मदृष्ट्या भवान् करोतु एव इति
भगिनी पापी नास्ति वा अथवा
पापी अस्ति चेत् अपि
वैरं नास्ति
वैरं नास्ति इदानीं सः पापी सः अधर्मिक इति तादृश मा पश्यतु पापी एतादृशं मा पश्यतु किमर्थम् इत्युक्ते अहं वदामि कथायां नास्ति किमर्थम् इत्युक्ते तस्याः आत्मा एव अस्ति इदानीम् अन्य सर्वं गतम् एव
एतत् जन्मान्तरं पापी अस्ति किन्तु तदनन्तरं पापी नास्ति
नास्ति नास्ति अस्तु अग्रे सविता भगिनी
आं भगिनि विभीषणः भगवन् तथापि रावणः पापी विभीषणा मरणान्तानि वैराणि अतः मम अपि रावणस्य विषये वैरं नास्ति रावणः भवतः यथा सहोदरः तथा ममापि यदि शवसंस्कारं भवान् न करोति तर्हि अहम् एवं करोमि इति गम्भीरस्वरेण उक्तवान् रामः. विभीषणः पुनः उक्तवान् रावणः पापी इति. श्रीरामचन्द्रः गम्भीरस्वरेण उक्तवान् मरणोपरान्तानि वैराणि न अस्ति रावण, अतः मम अपि रावणस्य विषये वैरं नास्ति. रावणः उक्तवान् रावणस्य मरणम् अनन्तरं वयं नास्ति इति. रावणः विभीषणस्य सहोदरः तथा रामः इस् स्पीकिङ्ग् इन् डैरेक्ट् स्पीच् इसन्ट् इट् भगिनि? हौ आर् ऐ टु पुट् दिस्?
सो यु से इट् इन् डैरेक्ट् स्पीच् ओन्लि भगिनि.
रावणः उक्तवान् रामः उक्तवान् रावणः सहोदरः तस्य सहोदरः तथा ममपि यदि शवसंस्कारं भवान् न करोति तर्हि अहं स्वयं करोमि इति रामः गम्भीरस्वरेण उक्तवान्.
सो भगिनी यु केन् से इन् डैरेक्ट् स्पीच् हे विभीषण अहं पूर्वम् उक्तवान् खलु मरणानन्तानि वैराणि तादृशं वक्तुं
I wanted to put it that way but I lost track of it bhagini.
You can do that way or you can do like how you said also
bhagini. That's why I told ramah gambhira swarena uktavan. I wanted to tell in that way. I started with that.
Sure.
Then I lost.
Nischayena bhagini samyak eva. So atah ramah vadati bhavan na karoti chet aham karomi
ah
karomi kim artham
iti shava sanskar
सहोदरः मम सहोदरः अपि. स्वागतम् अम्ब. अस्तु
भगिनि, शवसंस्कारार्थं किं?
शवसंस्कार अन्त्येष्टि इति वदामः खलु, क्रिमेशन् तादृशं भगिनि.
नमस्कारम् अम्ब, जन्मदिनस्य शुभाशयः.
अम्ब अस्ति वा?
सीकिङ्ग् ब्लेस्सिङ्ग्स्.
आशीर्वादं ददातु अम्ब, सर्वेभ्यः आशीर्वादं ददातु.
सर्वेभ्यः आशीर्वादं.
धन्यवादः अम्ब.
धन्यवादः
अम्ब.
धन्यवादः अम्ब. अम्ब, इदानीं पर्यन्तं किम् अभवत्? रामस्य रावणस्य च युद्धम् अभवत्, रावणः मृतवान्, रामः विभीषणं वदति अस्तु इदानीं शवसंस्कारं करोतु इति. विभीषणः वदति मम सहोदरः पापी, धर्मं न पालितवान्, अतः सः दुष्टः, अहं तस्य शरीरमपि न स्पर्शामि, शवसंस्कारं न करोमि इति. रामः वदति तथा मा वदतु, मरणस्य अनन्तरं सः शत्रुः न, वैरं मा पालयतु इति. विभीषणः वदति न, अहं न करोमि एव इति. रामः वदति भवान् न करोति चेत् अहं करोमि. किमर्थम् भवतः सहोदरः मम सहोदरः एव इति. इतोपि पर्यन्तं तथा एव कथा अस्ति. अस्तु अग्रे उर्मिला भगिनि.
क्षम्यताम्, अहं शवसंस्कारं करोमि. भगवन्, भवतः धर्मदृष्टिः असाधारणी इति वदन् श्रीरामं नमस्कृतवान् विभीषणः धर्ममूर्तये श्रीरामाय नमः. अत्र विभीषणः रामस्य
क्षम्यताम् इच्छति. सः उक्तवान् क्षम्यतां प्रभु, अहं सौसंस्कारं करोमि. सः स्वस्य किं दोषमस्ति सः ज्ञातवान्. तदर्थं सः उक्तवान् अहं सौसंस्कारं करोमि. सः उक्तवान् भगवन् भवतः धर्मदृष्टिः असाधारणी इति वदन् श्रीरामं नमस्कारं करोति. सः वदति धर्ममूर्ते श्रीरामाय नमः.
उक्तवान् अस्तु, किमर्थम् असाधारणी इति उक्तवान्?
उत्तमम्, असाधारणी मीन्स् उत्तमम्.
उत्तमं, साधारण दृष्टिः नास्ति, तादृशदृष्टिः साधारणतया न भवति. अन्येषां मनसि एतादृशदृष्टिः धर्मदृष्टिः न भवति. श्रीरामस्य पत्नीम् अपहारं कृत्वा एतादृशदुष्टकार्यं कृतवान् रामः. तथापि श्रीरामः वैरं मास्तु इति वदति. अतः असाधारणधर्मदृष्टि दृष्टिम् उपयुज्य सः वदति. अस्तु, सो अत्र वयं जानीमः श्री रामायणम् इति काव्ये साधारणतया श्लोकरूपेण एव अस्ति इति. सो अत्र श्लोकम् अहं स्थापितवती, श्लोकतः कथां लिखितवान् कोऽपि. अत्र पठितुम् इच्छति वा कोऽपि? चम्पा भगिनी.
आं भगिनि, आम्. मरणान्तानि वैराणि निवृतं न प्रयोजनं, क्रियताम् अस्य संस्कारो ममापेश यथा तव.
सो एवमेव श्रीरामः उक्तवान् विभीषणं युद्धकाण्डे. एवमस्ति 109 सर्गः षड्विंशतितमे श्लोके. अर्थमपि पठतु भगिनि.
वैराणि मरणस्य अन्ते अन्तानि समाप्तानि भवन्ति, अतः निवृत्तं वर्तमानकाले पुनः भवितुम् अस्माकं प्रयोजनम्, अतः अस्माकं कार्यं समाप्तम्. अस्य संस्कारः क्रियताम्, एषः यथा तव भ्राता अस्ति तथा एव मम अपि भ्राता.
इत्युक्ते सः गतवान्, रावणः गतवान्, वैरमपि गतम्. अतः इदानीं किं करणीयम् इति करोतु. निवृत्तं वर्तमानकाले इत्युक्ते इदानीं किं करणीयम् इति तदेव करोतु, तदेव प्रयोजनम्. निष्प्रयोजनचिन्तनं मास्तु. अतः अस्य संस्कारः क्रियताम्, करोतु इति लोट्ल क्रियताम्. एषः यथा तव भ्राता अस्ति तथा मम अपि. सुन्दरं खलु? एवमेव काव्यानि भवन्ति.
भगिनी, ऐ डिन्ट् क्वैट् अण्डर्स्टाण्ड् द सेकेण्ड् सेण्टेन्स् भगिनी. निवृत्तं वर्तमानकाले पुनः भवितुम् इत्युक्ते वर्तमानकाले किं पुनः भवितुं?
नो, वि शुड् कम् बेक् टु वर्तमानकाले. इत्युक्ते इदानीं किं करणीयं, दट् इस् निवृत्तम्. इदानीं किं करणीयं, नः इत्युक्ते अस्माकं प्रयोजनं, प्रयोजनविषये चिन्तनं कुर्मः. एवं कृतवान्, एवं कृतवान्, सः पापी, सः दुष्टः इति तादृशचिन्तनं मास्तु. इदानीं किं करणीयं, संस्कारं करणीयं, शवसंस्कारं करणीयं. तादृश चिन्तनं भवतु, वर्तमानकालम् आगच्छतु इति.
इदं किं करिष्यामि इति अहं योजनां कर्तुम्
आम्
भगिनि धन्यवादः भगिनि
धन्यवादः सो अत्र मरणान्तानि वैराणि इस् लैक् अ टर्म् अत्र मरणान्तानि वैराणि इत्युक्ते मरण मरणस्य पूर्वमेव तादृशचिन्तनं भवतु अनन्तरं सर्वं गतं वैरं गतम् एव क्रियताम् अस्य संस्कारः मम अस्तत् एतत् कृतवत् अस्तु प्रश्नः अस्ति वा अत्र नास्ति अस्तु अस्माकं पुस्तकं प्रति गच्छामः वयम् अत्र स्मः खलु कथा पठितवन्तः वयं पिशाचः क्रोधपिशाचः इति कथां पठितवन्तः सारांशः एवम् अस्ति त्रयः वनं गतवन्तः तत्र रात्रौ क्रोधपिशाचः आगच्छति सः एकं वाक्यं वदति पुनः तादृशमेव वाक्यं वदामः चेत् बृहत् बृहत् भवति क्रोधः अतः कृष्णः वदति तादृशचिन्तनं मास्तु सः कोपं कोपे क्रोधः आगच्छति चेत् उपेक्षां कुर्मः उपेक्षाम् इत्युक्ते इग्नोर् अधिकं किं वदामः अधिकं तादृश चिन्तनं मास्तु अन्य किमपि चिन्तयतु उपेक्षाम् इति सो अतः क्रोधः गच्छति इति सारांशः अस्तु एतदपि कृतवन्तः खलु
उत्तमं भगिनि त्रयः अभ्यासं
तृतीयम् अभ्यासम् अस्तु गोपिका भगिनि आरम्भं करोति वा असमानार्थकं शब्दं विचिनुत इत्युक्ते अत्र चत्वारि पदानि सन्ति सम अर्थकाः एव समान अर्थकाः शब्दाः एव परन्तु एकः एव तादृश अर्थं न सूचयति सः शब्दः कः अथवा तत् पदं किम् श्रीकृष्णः इति अर्थे अच्युतः
वाश्वेन्यः ऋषिकेशः कृष्णस्य नामानि अच्युतः अस्ति ऋषिकेशः अपि अस्ति वाश्रेण्यः इत्यपि श्रुतवत्याम् गुडाकेशः इति न श्रुतवती
गुडाकेशः अर्जुनस्य
आम् कृष्णस्य श्लोकेषु तत् नास्ति अतः असमानार्थकं पदम्
असमानार्थकम् अत्र अच्युत इति अस्ति चेत् गतः इति अर्थे उदाहरणार्थं एकं कार्यं कर्तुं बहु कष्टम् अनुभवामि चेत् अहं कार्यं कार्ये मम मनः अच्युतं भवति इत्युक्ते ततः गच्छामि इति अर्थे सो अच्युतः इति अर्थः सः न गच्छति he doesn't vanish achyutah varshneya varshneya tikte a census iti arte rishikeshah tatra api tadasha artah eva
uh
अग्रे
भगिनि
आं भगिनि
तत्र एकः शब्दः अस्ति विचिनुत अहं चिनोतु इति वक्तुं शक्नुमः वा
चिनोतु
चिनोतु
चिनोतु इति लोट्लकारप्रथमपुरुष एकवचनं चिनुत इति मध्यमपुरुष बहुवचनं यूयं चिनुत इति
ओ ओके ओके गॉट इट
गुडा इति किं भगिनि केशः इत्युक्ते
गुडा इत्युक्ते लैक् म्याट्रिड् हेर् इति वदामः खलु एवम् एवमेव भवति इति गुडा अस्तु अग्रे अम्ब मार्गः इति पदमस्ति समान अर्थकपदानि कानि इति अयनम् इति वयं वदामः खलु सूर्यस्य अयनम् इत्युक्ते उत्तरायणं दक्षिणायनं सो मार्गः तदपि मार्गः एव प्रगतिः अपि तादृशमेव प्रोग्रेस् इति वदामः वर्त्म इति वदामः चेत् यत् भवति इदानीं तदपि मार्गः इव अर्थः श्रुतिः इत्युक्ते
प्रगतिः
डेवलप्मेण्ट् प्रोग्रेस् बट् दट् इस् स्टिल् लैक् मूवमेण्ट् गोयिङ्ग् तादृश
ओके
ऐ मीन् लैक् आल्मोस्ट् मीनिङ्ग् एव सो साक्षात् अर्थः इति न वक्तुं शक्नुमः वर्ष्म इत्युक्ते तस्य मार्गः अपि श्रुतिः इति अस्ति चेत् यत् वयं शृणुमः खलु
तत् श्रुति श्रुतिः इति
श्रुतिः
इत्युक्ते इतस्ततः गच्छति
श्रुतिः इत्युक्ते यत् वयं शृणुमः तत् श्रुतिः खलु श्रुतिः अस्ति स्मृतिः अपि अस्ति स्मृतिः स्मृतिः इत्युक्ते किं
वेदः
वेदः यु लर्न् ईदर् रिसैटिङ्ग् आर् मेमरैसिङ्ग्
यत् यत् वयं स्मरामः स्मृतिः यत् वयं शृणुमः श्रुतिः परन्तु श्रुतिः न जानामि श्रुतिः इत्युक्ते
वेण्डरिङ्ग् इति अस्ति कोष्ठे
किमस्ति
इतस्ततः गच्छति इति
श्रुतिः अर्थम् अयन् वर्तमान मार्ग अष्टाध्यायी मध्ये अस्ति श्रुति अर्थम् अयन् वर्तमान मार्ग अध्वन् पथिन् पदवी श्रुति समानार्थं सप्तम्
प्रगतिः पश्यतु किम् अस्ति इति
प्रगति
डेवलप्मेण्ट् इति अस्ति
अतः प्रगति एव नास्ति खलु प्रगतिः नास्ति अहं चिन्तितवती प्रगतिः अपि भवति इति परन्तु नास्ति अस्तु सम्यक् अस्तु अग्रे मिलित्वा एव कुर्मः अस्तु अग्रे युद्धं युद्धं सम्बन्धीनि पदानि आनकः इति चिन्तयामि युद्ध
Anakah is like a dakka. It's
mridangam.
Drum, yuddhe bhavati, yuddha sambandha asti, ahavaha iti ahu, kalu, ahu. Ahu iti te kim? Ahavaha, evam bhavati.
Tadartham samartham, war cry, is it beginning?
War cry, eva. So, yuddhapi asti, sangramaha eva nasti iti, kalu?
तदपि भवति इति मन्ये
सङ्ग्राम अपि युद्धम् अर्थमस्ति
इत्युक्ते किं नास्ति तत्र
आनकः
इत्युक्ते अर्थः कः तत्र
ड्रम्स्
Probably used during the war, but doesn't mean the war, Bhagini.
Ahavaha itikte?
Ahavaha artham yuddha api.
Yuddha api. Anakaha?
Anakaha samyak, samanartham nasti.
Samanartham nasti. Anakaha itikte drums kalo. Upayogam eva kurmaha, parantu yuddham iti padam nasti. Astu. अस्तु अग्रे शरीरम् अहम् एवं चिन्तयामि पश्यामः
तनुः देहः शरीरं
तनुः शरीरं देहः शरीरं कलेवरमपि शरीरमेव इति अहं पठितवती कुत्रापि ततम् इत्युक्ते अर्थः न तादृश अर्थः न इति
ततं समर्थं नास्ति समानार्थं नास्ति
नास्ति नास्ति समानार्थं नास्ति अस्तु मित्रं
भगिनी कथम् इत्युक्ते किं
कथम् इत्युक्ते अहं चिन्तयामि ड्रम्स् इव आनक इव शब्दं कर्तुं साधनम्
अस्तु भगिनि धन्यवादः
अस्तु मित्रम् इत्युक्ते सखा सुहृद् सहायः शुचिः नास्ति शुचिः इत्युक्ते प्रकाशः श्वेतवर्णः इति सम्यक् वा
आं भगिनि
सैन्यं सेना एवम् अहं चिन्तयामि
चमूः इत्युक्ते किं भगिनि
सैन्य चमूः अर्थं सैन्य
सैन्य सेना
हृषिकम् इति
हृषिकम् इत्युक्ते सेन्स् आर्गन्स् इति वदामः खलु तदेव केशः इति अस्ति चेत् सेन्स् आर्गन्स् ईशः सः ईशः
अस्तु
अस्तु अग्रे गच्छामः अस्तु शुद्धवाक्यानां पुरतः एवं चिह्नं लिखत
क्षम्यतां भगिनि सिक्स्थ सेण्टेन्स् कः शब्दः समानार्थं नास्ति
ऋषिकं
ऋषिकं धन्यवादः
सेना अनेकं चमूः सैन्यस्य अन्यपर्यायपदम्
अस्तु धन्यवादः
धन्यवादः शुद्धवाक्यानां पुरतः एवं चिह्नं लिखत। एकदा श्रीकृष्णः अर्जुनः सात्यकिः च वनविहारार्थं गतवन्तः।
शुद्धं
शुद्धम् शुद्धम् अस्तु। अम्ब आरम्भं कुर्मः। रात्रौ रक्षणार्थं त्रयः उपविष्टवन्तः। त्रयः उपविष्टवन्तः वा एकमेकम् उपविष्टवन्तः वा?
प्रथमं वाक्यं सत्यं नास्ति।
अर्जुनः बलरामः बलरामः भगिनि
अर्जुनः न गतवान्।
सम्यक् भगिनि, सम्यक्। अर्जुनः न गतवान्,
बलरामः
एव। सम्यक् भगिनि, अहमेवमेव लिखितवती। अस्तु अस्तु। रात्रौ रक्षणार्थं त्रयः उपविष्टवन्तः वा एकमेकम् उपविष्टवन्तः वा पर्यायरूपेण?
एकमेकम्
एकमेकं, सो अतः शुद्धं नास्ति। प्रथमः पर्यायः कृष्णस्य आसीत्। जयश्री भगिनी,
नास्ति भगिनि, प्रथमः पर्यायः सात्यकस्य आसीत्।
सात्यकः, अनन्तरं बलरामः, तृतीयः एव कृष्णः। अस्तु सम्यक्। पिशाचः मल्लयुद्धार्थम् आहूतवान्। अग्रे लता भगिनी।
आं भगिनी, पिशाचः मल्लयुद्धार्थम् आहूतवान्।
कृष्णः पिशाचं वृक्षे बद्धवान्। अग्रे सागरी भगिनी वा?
आं भगिनि, असत्यं भगिनि,
असत्यम्।
अञ्चले बद्धवान्।
अञ्चले, सम्यक्, अञ्चले एव बद्धवान्, वृक्षे न। क्रोधपिशाचस्य प्रकृतिः एषा उपेक्षया क्षीणा भवति। अग्रे सन्ध्या भगिनी।
सत्यं भगिनि,
सत्यं सत्यम्, उपेक्षां कुर्मः चेत् क्षीणा एव भवति। उत्तमा कथा। अग्रे अस्ति उपसर्गः। उपसर्गः इति बृहत् विषयं विषयः किमर्थमिति सर्वदा भवति। सो अत्र उपसर्गः साधारणतया धातु अस्ति खलु, धातुः अस्ति, ततः पूर्वम् आगच्छति, पूर्वमेव उपसर्गः आगच्छति। धातुः अस्ति अनन्तरम् आगच्छति चेत् तस्य नाम स्मरति वा?
प्रत्ययः।
प्रत्ययः, सम्यक्, प्रत्ययः। अनन्तरम् आगच्छति चेत् प्रत्ययः, पूर्वम् आगच्छति चेत् उपसर्गः इति अस्ति। धातुः अस्ति, प्रत्ययः अस्ति, प्रत्ययः द्विविधः अस्ति। एकं प्रत्ययम् उपयुज्य कुर्मः चेत् तिङन्तपदम् आगच्छति। तिङन्तपदं, तिङन्तपदम् इत्युक्ते क्रियापदं भवति। उदाहरणार्थं ति प्रत्ययम् उपयुज्य पदं कुर्मः चेत् गम् अस्ति, ति अस्ति, गच्छति इति भवति, तिङ् रूपं भवति। तिङ् इत्युक्ते क्रियापदम्, क्रियापदं भवति। अन्यत् एकम् अस्ति अन्यप्रत्ययः, उदाहरणार्थं तवतु प्रत्यय। तवतु प्रत्ययम् उपयोगं कुर्मः चेत् तिङन्तपदम् इत्युक्ते क्रियापदं न भवति, नामपदं भवति। गम् धातु तिङ् उपयुज्य कुर्मः चेत् गच्छति, परन्तु अत्र गतवान् इति भवति, गतवान् इति नामपदम्, अत्र क्रियापदं भवति। परन्तु इदानीं वयम् उपसर्गविषये पठामः। उपसर्गः इति वदामः चेत् धातु एव भवति, क्रियापदमेव भवति। धातु अस्ति गम् धातु, गम् धातु सो अत्र गच्छति इति भवति अथवा गतवान् अपि अपि भवति अनन्तरं किम् अस्ति इति दृष्ट्वा गच्छति भवति अथवा गतवान् अपि भवति सो अत्र गम् धातु अस्ति ततः पूर्वम् आ इति उपसर्गं योजयामः चेत् आगच्छति अथवा आगतवान् इति भवति सो अतः उपसर्गं बहु मुख्यविषयः सर्वत्र उपयोगः भवति सो अत्र सारांशः यत् वक्तुम् इच्छामि इत्युक्ते उपसर्गेण परिवर्तनं भवति धातोः अर्थपरिवर्तनं भवति रूपपरिवर्तनमपि भवति परन्तु अर्थपरिवर्तनमपि भवति सो अत्र गम् धातु अस्ति आ इति वदामः चेत् विपरीत अर्थं भवति विपरीत अर्थं भवति अन्यत् एकम् अस्ति अर्थपोषणं भवति अधिकं भवति उदाहरणार्थं किम् अस्तु इदानीं न स्मरामि अर्थपोषणं भवति अपि च
आत्मनेपथ्यति
तत् किञ्चित् भिन्न अर्थं भवति इत्युक्ते गृह्णाति इत्युक्ते टु होल्ड् सङ्गृह्णाति टु कलेक्ट् किञ्चित् अर्थ भिन्न अर्थमेव भवति अत्र
अनुगृह्णाति
अनुगृह्णाति इस् टु टु फालो समथिङ्ग् लैक् अनुगृह्णाति परन्तु तादृशं भगिनि सो अत्र चिनोति विचिनोति दट् इस् अ गुड् एक्साम्पल् चिनोति इत्युक्ते टु सेलेक्ट् विचिनोति अपि समानार्थं दट् इस् एन् एक्साम्पल् आफ् इद् पोषण विचिनोति विचिनोत् अस्तु तादृशं विचिनोतु सो अत्र आगच्छति विपरीत अर्थः अत्र अस्ति अर्थपोषणम् अथवा समानार्थ आल्मोस्ट् समानार्थ पोषणम् अन्यत् अन्यत् एकम् अस्ति आत्मनेपदी धातु परस्मैपदी भवति परस्मैपदी आत्मनेपदी परिधातु भवति आत्मनेपदी धातु अन्दन् परस्मैपदी धातु सो एतत् अस्ति सारांशः अबौट् उपसर्गः अनन्तरम् उपसर्गस्य अर्थः कः इति न वक्तुं शक्नुमः किमर्थम् इत्युक्ते सन्दर्भानुसारम् अर्थमपि परिवर्तनं भवति परन्तु साधारणतया अनु इति वदामः चेत् टु फालो उत् इति वदामः चेत् अधस्तात् उपरि उत्तिष्ठति इत्युक्ते फ्रम् सिट्टिङ्ग् यु गेट् अप् उत्तिष्ठति अधस्तात् उद्धरति तादृशं फ्रम् डौन् यु पुल् अप् इति अर्थे अस्ति इदानीं पाठं प्रति आगच्छामः भीष्मः गच्छति कुन्ती आगच्छति आ इति योजयामः चेत् विपरीत अर्थः भवति सो अत्र अनु अनुधावति फालोविङ्ग् सो इट्स् नाट् द सेम् खलु धावति कृष्णः धावति एषः अनुधावति अनुधावति सो अत्र समानार्थम् इति न वक्तुं शक्नुमः समानार्थः इति भीष्मः गङ्गां दृष्ट्वा आगच्छति अत्र आ इति उपसर्गः नमति प्रणमति सो अत्र वयं कुर्मः विपरीत अर्थः नमति प्रणमति अत्र विपरीत अर्थः वा अर्थपोषणं वा अर्थः
पोषणं वा
पोषणं विपरीत अर्थः इत्युक्ते एकम् इति संख्यां लिखामः आगच्छति विपरीत अर्थः नमति प्रणमति सो दिस् इस् अ वेरि गुड् एक्साम्पल् नमति प्रणमति सो अत्र र अस्ति अतः णत्वं भवति णत्वं भवति सो अत्रापि नश्यति प्रणश्यति पोषणम् अर्थपोषणं कृष्णस्य भक्ताः न प्रणश्यति न नश्यन्ति प्रनश्यन्ति प्र इति उपसर्गः अस्ति प्र अस्तु अर्जुनस्य मुखं परिशुष्यति शुष्यति परिशुष्यति इत्युक्ते सो अत्र दिस् इस् अ वेरि गुड् सैट् सो फार् उपसर्गः शुष्यति रैट् सो शुषि शुषि इति अहम् ओके शुष्यति द्रष्टुं शक्नुवन्ति खलु शुष्यति सो अत्र पश्यन्तु उपसर्गसहित अर्थमपि दर्शयन्ति अत्र सैट् इस् वेरि गुड् सो वित् अनु dry but slow degrees one after another shushka with ut samud upa pari vi sam dry or shrink so atra artha parivartanam bhavati so atra atra pashyantu ud samud upa pari samana arthakam bhavati द्रष्टुं शक्नुवन्ति खलु
भगिनि
सो अत्र समानार्थकं मेक् ड्रै समानार्थकम् अर्थ सो विद् विद् उपसर्ग विदौट् उपसर्ग समान शुष्यति टु ड्रै अप् परिशुष्यति
It's this ud. So, ud plus shushyati, how do we pronounce it, Bhagini?
Ud shushyati eva.
Ud shushyati. Okay. Dhanyavad.
Samud upa pari samana artha. Shushyati.
Samud shushyati.
Okay. Pari api samana meva. Pari. Pari shushyati. सो अत्र पोषणं पोषणम् इत्युक्ते किञ्चित् अधिक अर्थ एन्हान्स् अथवा समानार्थ इति कामात् क्रोधः अभिजायते जायते अभिजायते तत्रापि ओके इफ् यु चेक् हियर् समान अर्थकमेव जायति जायते सो दिस् इस् अ उभयपदी धातु जायते इत्युक्ते टु बि बार्न् टु बिकम् हेपन् इति अभि समानार्थ सो दट् इस् अ गुड् सैड् अधिगच्छति अधिगच्छति
भगिनी लिङ्क् ka link is this ka link
yeah so you just check andhrabharati.com I think I put this in the description this is a very good link for upasarga otherwise
also oh, did you send it the link in
I will check I think it is there
on it, what
yeah
May you please send it again?
Sure, Bhagini.
Appreciate
sure.
it.
Sure. Oh, Upasarga and Sanskrit. Urmila Bhagini has sent something. Dhanyavad, Bhagini. Yeah. So this is the link. Very good link.
Dhanyavad Bhagini.
Bhagini, I have a question. If it means the same, what's the use of using a upasarga that gives the same meaning?
Because
unless it enhances.
Yeah, because it's very beautiful to listen to, Bhagini. That's the reason.
Oh.
For example, gachati is there, but abhi gachati. Then what happens? Abhi. Atra abhi astiva. Abhi. Abhi itikte, to come near, approach.
Okay.
So this is a different one. It also means follow, go after. See how different it is. Come near api asti, go after, follow api asti, meet api asti. And also understand api asti. So it really depends on the context. Sandarbha anusaram eva vayam avagantum shaknumaha. Atma prasadam adhigachyati. What does that mean? Adhi. So where is adhi atra? Adhi. I would say acquire. Hello? Acquire. Asto. Samshayatma vinashyati.
Ataha adhigachati poshanam eva va bhagini.
Poshanam. Atra poshanam eva. Poshanam. Abhijayate poshanam adhigachati.
Poshana.
Vinashyati poshana. Bhagavan Varsham Nigrinati Ut Kim Bhagini.
Sorry Bhagini, just wanted to reconfirm the meaning of Abhijayate. It goes, is it?
It becomes.
Okay.
Kamat Krodaha Abhijayate. Jayate means it happens.
Okay.
So this is a very a common thing. Like, you know, why we get angry? We get angry when we don't get something.
Right.
Tadisham. So, kamaha asti chet eva expectation bhavati.
Desire leads to anger.
Desire leads to anger. So we have to watch our desires. Samshayatma vinashyati poshana. Bhagavan varsham nigrinnati. So atra api ni iti upasargaha asti. Nigrinnati ut srajati cha.
Poshana.
Nigrinnati. What does nigrinnati mean? So if we keep checking meaning for everything, it will take a long time, but it will be worth it. Hello? I will check somewhere. So tatra, by the time I write grinnati there, it will be hard. So here I have the Sanskrit. I don't like this one. Grinnati. Oh, nasty. Grinnati nasti iti. Okay.
नास्ति वा किमर्थम् अस्ति अस्तु तत् अस्तु अत्र पश्यामि क्षम्यते सो अत्र गृह्णाति इस् टु होल्ड् निर्गृह्णाति इस् टु सप्रेस् सो अत्र अर्थ पोषणं वा विरुद्धार्थकः वा विरुद्ध सो अत्र अस्ति विरुद्ध उत् सृजति सृजति इत्युक्ते किम् सृजति उत्सृजति समानार्थकं खलु सृजति सो भगवान् कन् डू बोत् इति He can withhold or he can make it happen. He can do both. Manushyah karyani kurvan siddhim avapsyati.
Lang.
Poshana. Kalu? Pratamam asti.
Atra lang vavaydi.
Na, this is... लृट् लकार प्राप्नोति भविष्यत्काल
आं भगिनि तदेव चिन्तितवती वादने
आमामां तादृशं भवति सो अत्र प्राप्स्यति प्राप्स्यति इति अस्ति प्रथमम् अनन्तरम् अवप्राप्स्यति सो अव अवाप्स्यति सो अत्र प्राप्न आप्स्यति क्षम्यताम् प्रथमम् अस्ति आप्स्यति आप्स्यति प्राप्स्यति समानार्थकपदं प्राप्स्यति प्र उपसर्ग योजयामः चेत् प्राप्स्यति अथवा आप्स्यति अवप्राप्स्यति अपि समानार्थकमेव सो अत्र अर्थपोषण अग्रे अस्ति कर्मयोगी विशिष्यते
भगिनि अर्थं किम् अवाप्स्यति
धन्यवादः आप्नोति अवाप्नोति समानार्थकपदं सो अत्र प्र अव इति समानार्थं पूर्वं वयं दृष्टवन्तः खलु परिशुष्यति परिशुष्यति परि अवि ऐ मीन् अव इति बहवः उपसर्गाः सन्ति परन्तु समानार्थकं भवति अस्तु कर्मयोगी विशिष्यते शिष्यते विशिष्यते अर्थः क अर्थः कः शिष्यते विशिष्यते
रिमेन् द सेम्
योगिनः यज्ञं पर्युपासते उपासते इत्युक्ते अस्तु
प्रिसैड्स् ओवर् भगिनि
लैक् यज्ञं करोति आचरति इति यज्ञं परि उपासते पर्युपासते इति भवति तदपि समानार्थकपदमेव सन्ध्या भगिनि वदतु भगिनि
नो भगिनि सेम् थिङ्ग् परि प्लस् उप प्लस आसते
तत्र ओ या दट् इस् अनदर् थिङ्ग् सो एकः एव उपसर्गः इति न बहवः उपसर्गान् बहून् उपसर्गान् योजयितुं शक्नुमः सो अत्र इस् अ वेरि गुड् एक्साम्पल् आसते उपासते परि उपासते सो गच्छति आगच्छति प्रति आगच्छति एवमेव बहून् उपसर्गान् योजयितुं शक्नुमः सो देट् इस् अनदर् थिङ्ग् ऐ फोगाट् टु टेल् सो परन्तु समानार्थकमेव समानार्थकान् वर्तते प्रवर्तते इत्युक्ते अस्ति वर्तते इत्युक्ते अस्ति वर्तते इति आपनेपदम् अस्ति इति अर्थे अस्ति विपरिवर्तते विपरिवर्तते सो अत्र परि योजयामः चेत् विपरि जगत् विपरिवर्तते विपरिवर्तते किं भवति अत्र
विरुद्धार्थ
विरुद्धार्थ खलु वर्तते मीन्स् एक्सिस्ट् परिवर्तते इट् चेञ्जस् विपरिवर्तते इट् चेञ्जस् दि आपोजिट् वे इति विपरि विपरि अर्थे सो इट् चेञ्जस् द मीनिङ्ग् विरुद्धार्थकं भवति का सर्वे अवगच्छन्ति वा इतोपि पर्यन्त उपसर्गं वयं सम्यक्तया ज्ञातुं न शक्नुमः किमर्थम् इत्युक्ते सन्दर्भानुसारं परिवर्तनं भवति अर्थपरिवर्तनं भवति अतः कोष्टकं दृष्ट्वा दृष्ट्वा एव अवगन्तुं शक्नुमः अतः डोण्ट् फील् इन्सेक्योर् अस्तु कार्याणि आत्मवन्तं न निबध्नाति निबध्नाति विरुद्ध्वा पोषणं वा
विरुद्ध
विरुद्ध
विरुद्ध कार्याणि आत्मवन्तं न बध्नाति खलु परन्तु अत्र न निबध्नाति इति अस्ति
देट् मीन्स् बध्नाति रैट्
देट् मीन्स् बध्नाति सो अत्र विरुद्धार्थकः एव इत्युक्ते बध्नाति बध्नाति इति वा निबध्नाति अहं चिन्तयामि समानार्थः
इति कोष्ठे एवमेव पोषणमेव
समानार्थकमेव अस्तु विवस्तान् योगं मनवे प्राह अत्र आह इत्युक्ते उक्तवान् प्राह अपि समानार्थक एव प्राह विवस्वान् योगं मनवे प्राह एतानि गीतावाक्यानि सो इफ् यु गूगल् यु फैण्ड् दि आन्सर्स् फार् आल् दीस्
थिङ्ग् विवस्वान् इस् सन् इसन्ट् इट् भगिनि
विवस्वान्
सन् आमा सेण्टेन्स् मीन् भगिनि विवस्वान् योगं मनवे प्राह
न जानामि विवस्वान् इति सन् सन् एव
भगिनि
अध्याय चतुर्थ अध्याय
विवस्वान् मनवे प्राह इट् मीन्स् विवस्वान् टोल्ड् मेन्कैण्ड् आफ् द ओरिजिन्स् आफ् हौ द वर्ल्ड् यूनिवर्स् वास् फार्म्ड्
ओ अस्तु योगं मनवे इत्युक्ते
मनुष्याणि अत्र मनवे
चतुर्थी मनवे एव विवस्वान् मनवे
चतुर्थ अध्याय अस्ति
See, if you just Google, you'll find the answers. These are all from the Bhagavad Gita. Vivasvan manave praha, unto the father of mankind, the son, that is God.
Manuhu ragnyam vavan.
Manu, manave, guru, gurave iti. Manu, father of mankind, of the name of Vaivarsita, praha, told iti. Aha, praha, praaha. So itite suryaha manushyanam krite evam uktavan iti. Manave praha, unto the... He said something iti, asti. Asti. So atra aha praha samanartaka padam. Vimudaha jivatmanam na anu pashyanti. Pashyanti, anupashyanti. Is it they came?
Poshanameva.
Look upon iti arte. Pashyanti iti artaha asti, look iti. Anupashyanti, samanartaka, almost.
Mata putram anupashyati.
Anupashyanti, Vimudaha.
Look after.
Manam na anupashyanti iti.
Vimuda is foolish person, Bhagini. Vimuda jivatmanam na.
Jivatmanam, jivatma asti iti te na avagachanti iti arte.
Vimuda murkaha?
Murkaha.
Murka.
Eva. Panditaha sankhya yogam prithak na pravadanti. Vadanti pravadanti.
Poshakam.
Yeah, like they don't call it differently. Vadanti itikte to say, hello. Paranto atra kinchiteva vinna artaha. Panditaha sankhya yogau prithakna pravadanti. They don't say that is different iti. Samanartaka pala. Call it and saying it. Something different, kalu, call it. I would call it that, or I say it. Kinchit binna artaha, paranto artha portion. Viruddha artha iti na vaktam shaknumaha. Vibhuhu kasyachit papam na adatte. Adatte iti te?
Datte adatte.
Viruddha artha.
Viruddha
artha. So, itikte like dadati svikaroti. Tadrsha artha. Datte adatte. Vibhuhu itikte powerful people iti. Vibhuhu kasyachit papam na adatte. From anybody. Vibhuhu iti powerful va? Na janam. Itikte anya papam. Anya papam na svikaroti. Vibhuhu itikte artaha idanim na smarami. So ataha katina meva kalo. Artaha kaha iti jatiti nyato na shatnumaha. Puna punaha koshtakam dashtavya meva. Paranto atra sadharana vachyam asti che. Sadharana padani santi che avagantam shatnumaha. Gacchati agacchati, nayati anayati, tishtati uttishtati. Swatra, tishtati uttishtati kinchit binna artahava artha poshanam vai. Etat binna artha. Kalo, nayati anayati binna artha. Tishtati itikti ekanimsham tishtatu. Atava atreva tishtatu. Iti vaktum shatnumaha. Parantu uttishtati ityukte saha upavishati tataha uttishtati to get up atava stay. So atra भिन्न अर्थः खलु. सो अत्र अत्र पोषणं वा भिन्न अर्थः वा न जाना. सो वी हेव् टु डिसैड्
विरुद्ध
विरुद्ध
अस्तु विरुद्ध
विरुद्ध ओके विरुद्ध अथवा वन् आर् विरुद्ध सरति अनुसरति. सरति इत्युक्ते गच्छति. अनुसरति टु फालो.
भगिनि उत्तिष्ठति कम्स् इन् अ नम्बर् आफ़् वर्सस् इन् द सुप्रभातम् आल्सो. सो इट् मस्ट् बी टु रैस्
रैस् रैस् टु गेट् अप् to get up, get up, rise, tadrusha. So viruddha, or we can say poshanam. I don't know, it depends on the circumstance. I don't know. So atra
stay in one place, right Bhagini?
So tishtati is to stay in one place. So ataha artha poshanam mastu astu. Sarati anusarati. So this is भिन्नार्थः. वदति अनुवदति. अनुवदति टु रिपीट् अथवा टु गिव् दि आन्सर् उत्तरं ददातु अथवा अहं यत् वदामि पुनः वदतु अनुवदतु.
सरति अनुसरति इति पोषणं न वा?
सो अत्र अनु इति वदामः चेत् समान अर्थकं वा पोषणं वा. उदाहरणार्थं रामः सरति सीता अनुसरति. शि फालोस् हिम्. गुरो अनुसरामः. वि फालो अवर् गुरुस् अड्वैस् चरति. Charati also samanameva. Charati means to go. Anucharati, like anucharam. Anucharam kurmaha. That is different. So ataha, karoti anukaroti. This also repeat or copy. Anukaroti. Likati vilikati samanartha. Harati binnartha. विहरति. हरति इत्युक्ते अर्थः कः? टु किल् खलु. नाशं कुर्मः. हरति टु किल् अथवा तादृशम् अरति. तादृशम् अस्ति. हरति हरणं. हरणं टु to steal, apaharanam, tadrisham.
Harati it's a take away also, Bhagini.
Harati is to take away, like apaharanam, to take away. Apaharanam, harati apaharati samanartha. Parantu vi yojayam pratamam asti hrdhatu. Hridatu. Hridatu will become harati. So atra apa hridatu harati itite to take away. Chorayati like that. Arte asti. Apa iti yojayamaha chet samanartakam bhavati. Apa harati to steal, to take away. Viharati to roam. Vihararthaṁ gacchami. Aham उद्याने विहरामि. दट् मीन्स् ऐम् टेकिङ्ग् अ स्ट्रोल्. सो निश्चयेन विरुद्धर्थकः. स्मरति विस्मरति विरुद्धर्थकः.
विरुद्धार्थं
विरुद्ध निश्चयेन. क्षिपति
भगिनी वन् क्वश्चन् नौ. स्मरति एण्ड् विस्मरति इस् यु नो देर् एक्साक्ट् आपोसिट् आफ़् ईच् अदर्. But you can't say the same for harati and viharati, right? Take away and roam about are totally different meanings.
Totally.
They are not opposite also. Isn't it?
No, correct. Correct. That's why I cannot say vi means this. That means that. I cannot say that.
So, quite a few of the words are like, for instance, tishtati and uttishtati. You can't they say the same, you can't say they're opposite either. Because, you know, one is stand and one is get up. So, they have different meanings, right?
But one thing I have seen, uttiti asti che, adastat upari.
So we cannot call it virudhartaka also, right?
No, it's kind, yeah, like...
No, unless it means a different meaning. If we are going to take virudhartaka to mean a different meaning rather than opposite, like we would generally take it, right?
Yeah, correct. For example...
So we can just take it as opposite or a different meaning.
Yeah.
Not enhancing that word.
No, no.
Like that.
So all we can say is anyartam. Anyartam
anyartam. Bhagini. Vidya virodhartakam ya anyartakam. Like that we can take it, right?
Yeah. Atra pashyantu bhagini. So uttama suchitavati. Viharati vinnartha. Vismarati paranta atra vilikati samanartameva.
Bhagini. The same upasarga is giving different meanings to different words.
Kshipati, nikshipati. Samanartha.
Portion.
But atra, kinchit different. Kshipati means to throw. Aham kshipami, I just throw. Nikshipami means I throw it down. Iti arte. Throw down. So, atah kinchit binna artha. Like, one slash two, anya artha. So this is very interesting and very difficult also to understand only by reading a lot.
Bhagini, we need to know the meanings, Bhagini. Then only we can make out it.
I'm Bhagini. So I looked up the meanings and I wrote it down, Bhagini. So in the beginning, I wanted you to get the experience in it now. Okay.
But Bhagini, when it is in context, it's easier to understand than seeing the word separately like this. Because each word has so many meanings. When we look up in the dictionary also, we don't know what meaning to take.
Exactly, Bhagini. So, Udahanatham, this harati, okay, I like to show harati because every upasarga has a different meaning. Harati. Okay, harati, look at this. Hridhatu, it comes from hridhatu. Hold, carry, bring, offer, present, please, carry away, remove. Look at the different meanings. But then, atiharati, carry beyond, vyatiharati, adiharati, anuharati, apaharati, take away, abhiharati. So it goes on, beginning. Very confusing, but as you say, with the context, it's better. So, agre vayam, vakyani pashyamaha, bahu sulabaha bhavati. Praharati is to hit. Praharanam karoti. Atra chalayati, prachalayati, samanartha. So, harati, praharati, vinnartha. Chalayati, prachalayati, samanartha.
Bhagini, in this context, what is harati then? Earlier we took it as takeaway and viharati as roam about. Now, the same word is repeating again.
So, praharati is to hit.
Okay, then harati?
Harati is to take away. Viharati to roam around.
Okay, so harati remains take away.
Harati remains take away. But when you add the praharati, it becomes hit.
Okay. Then you are talking.
But the same pra upasarga, it doesn't change the meaning. Kshalayati prakshalayati. Samanartha. Palayati, paripalayati, samanartha. Pritchati, paripritchati. Pritchati, paripritchati, samanartha. परन्तु पृच्छति
नाट् विरुद्धा अस्ति भगिनि क्वश्चिन् कौण्टर् क्वश्चिन्
दट्स् वाट् ऐ वास् गोण्ट् से पृच्छति इत्युक्ते टु जस्ट् आस्क् अहं प्रश्नं पृच्छामि इति परिपृच्छति इस् लैक् लैक् एन् इण्टरागेशन् कैण्ड् आफ् थिङ्ग् इण्टरागेशन् पुनः पुनः पृच्छामि सो मे बि विरुद्धर्थक आर् समानार्थक सो दिस् इट् डिपेण्ड्स् आन् द काण्टेक्स्ट् सो अत्र गच्छति टु गो अवगच्छति टु अण्डर्स्टाण्ड् निश्चयेन विरुद्धर्थक संथिङ्ग् वेरि डिफ्रेण्ट् नमति अवनमति सो अत्र अत्र किम् अस्ति समानमेव नमति इत्युक्ते यूज्वलि टु नमति अव अपि समानमेव अव मीन्स् टु पुट् द हेड् आन् सो इन् द इन् द कथा वि आल्वेस् ए मुखं शिरम् अवनमय्य वि सी दट् अ लाट् इन् द इन् द कथा दट्स् वै ऐ लैक् द कथास् रीडिङ्ग् कथास् ए लाट् दट्स् वै ऐ नो एव्रि क्लास् ऐ पुट् द कथा वि लर्न् सो मच् फ्रम् कथा अवनमय्य वि सी इट् इन् कथा ए लाट् अवनमय्य अवनमय्य इत्युक्ते पुट्टिङ्ग् द हेड् डौन् नमति आल्सो पुट्टिङ्ग् द हेड् डौन् अवनमति समानार्थकपदम् वसति अधिवसति समानार्थ वसति मीन्स् लिविङ्ग् द अधिवसति समानार्थकपदम्
निवसति अपि समानार्थकम्
अपि समानमेव सम्यक् सो इफ् यु आड् नि निवसति समान अर्थकपदमेव भवति करोति टु डु उपकरोति उपकारं करोति साहाय्यं करोति भिन्न अर्थकपदं खलु आर् अन्य अर्थकपदं भिन्न अर्थक डिफ्रेण्ट् अर्थ विरुद्धर्थक न भिन्न अर्थक गृह्णाति टु होल्ड् सङ्गृह्णाति टु कलेक्ट् अत्र पश्यतु हृदातु हरति संहरति वाट् इस् संहरति संहार स्ट्रैक् स्ट्रैक् किल् तादृश संथिङ्ग् टु डिस्ट्रक्षन् सरति निःसरति सो अत्र निहि इति अस्ति निहि निःसरति सो द विसर्ग विल् बिकम् सकार निःसरति निःसरति इत्युक्ते नाट् गो सरति मीन्स् टु गो निःसरति नाट् गो सो आपोसिट् अत्र
विरुद्ध
विरुद्ध भिन्न अपि न विरुद्ध सो भवति पराभवति इत्युक्ते टु ओवर्कम् So I'm doing it fast because I want to finish before that time. Bhavati itikte asti iti vartate iti bhudatu. So para bhavati itikte to overcome iti iti arte asti.
Viruddhartha.
Viruddhartha. Atava anyartha. So binna artha ka pada. So atra करोति अपकरोति इति आपोजिट् आफ् उपकरोति दट् इस् साहाय्यं न करोति पाप आहित आहितकार्यं करोति संथिङ्ग् नाट् हेल्प्फुल् इति उपकारं करोति अपकारं करोति सुन्दरं खलु हौ हौ इट् हेपन्स् अस्तु जानाति अभिजानाति अभिजानाति इत्युक्ते टु रेकग्नैस् जानाति टु नो अभिजानाति टु रेकग्नैस् सो अत्र भिन्न अर्थकपदं सो अपकरोति इट् चेञ्ज् इस् द मीनिङ्ग् सो अत्रापि चेञ्ज् इस् द मीनिङ्ग् संहरति टु चेञ्ज् द मीनिङ्ग् अस्तु वा अग्रे सम्यक् भवति ओ दट्स् मोर् अस्तु चोचति अनुशोचति सो अत्र किम् अस्ति. अस्तु, वि विल् कण्टिन्यू द नेक्स्ट् टैम्. ओके, ऐ डोण्ट् वाण्ट् टु गो ओवर् दट् टैम्. शोचति अनुशोचति. सो अत्र गृहपाठरूपेण पश्यन्तु, वयं चर्चां कुर्मः. आफ्टर् दिस् इट् बिकम्स् ईज़ि. ओके, ओके, आल् दीस् विल् डेफिनेट्लि मेक् यु फील् बेटर्. सो इट् गोस् आन् अण्ड् आन्. किमर्थम् इत्युक्ते विषयः तादृश अस्ति, बृहत् विषयः अस्ति. So we will stay here for another 2-3 classes. Iti aham chintayam. Astu. Atra stagitavantaha. Puta sankhya 92. Astu. Shanti mantra muktva samapayama. Kopi vaktam icchati va shanti mantra?
Ambhavi.
Varatu bhagini.
Sarve bhavantu sukhinaha. Sarve santu niramaya. सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ. श्रीगुरुभ्यो नमः. हरिः ॐ.
धन्यवादः.
धन्यवादः भगिनि.
धन्यवादः. धन्यवादः. पुनर्मिलामः.